Okay, so we learn the seventh verse from the third chapter of eighth canto from Gajendra prayers. Dridakshavo.
Dridakshavo. Dridakshavo. Dridakshavo.
Yes, yeah.
Yes, yeah. Yes, yeah. Yes, yeah.
Padam.
Padam. Padam. Padam.
Sumangalam.
Sumangalam. Sumangalam. Sumangalam.
Vimukta.
Vimukta. Vimukta. Vimukta.
Sangha.
Sangha. Sangha. Sangha.
Munaya.
Munaya. Munaya. Munaya.
Sushadava.
Sushadava. Sushadava. Sushadava.
Charantya Loka.
Charantya Loka. Charantya Loka. Charantya Loka.
Vratam.
Vratam. Vratam. Vratam.
Avranam. Vane. Bhutatma.
Bhutatma. Bhutatma. Bhutatma.
Bhuta.
Bhuta. Bhuta. Bhuta.
Suhruda.
Suhruda. Suhruda. Suhruda.
Same.
Same. Same. Same.
Gati.
Gati. Gati. Gati.
Dridakshavo.
Dridakshavo. Dridakshavo. Dridakshavo.
Yes,
yeah. Yes, yeah. Yes, yeah. Yes, yeah.
Padam.
Padam. Padam. Padam.
Sumangalam.
Sumangalam. Sumangalam. Sumangalam.
Vimukta.
Vimukta. Vimukta. Vimukta.
Sangha.
Sangha. Sangha. Sangha.
Munaya.
Munaya. Munaya. Munaya.
Sushadhava.
Sushadhava. Sushadhava. Sushadava.
Charantya Loka.
Charantya Loka. Charantya Loka. Charantya Loka.
Vratam.
Vratam. Vratam. Vratam.
Avranam.
Avranam. Avranam. Avranam.
Vane.
Vane. Vane. Vane.
Bhutatma.
Bhutatma. Bhutatma. Bhutatma.
Bhuta.
Bhuta. Bhuta. Bhuta.
Suhrida.
Suhrida. Suhrida. Suhrida.
Same gati.
Same gati. Same gati. Same gati.
All of you got it? Any doubt? No doubt? Okay. All of you pay attention, okay? Dridakshavo yasya padam sumangalam.
Dridakshavo yasya padam sumangalam. Dridakshavo yasya padam sumangalam.
Vimukta Sangha Munaya Sushadava.
Vimukta Sangha Munaya Sushadava.
Vimukta Sangha Munaya Sushadava.
Vimukta Sangha Munaya Sushadava.
Charantya Loka Vratam Avranam Vane.
Charantya Loka Vratam Avranam Vane. Charantya Loka
लोकावतम अवरणम वने भूतात्म भूत सुहृदे समे गति
भूतात्म
भूत सुहृदे समे गति भूतात्म भूत सुहृदे समे गति दिदक्षवो यस्य पदं सुमंगलम
दिदक्षवो यस्य पदं सुमंगलम
दिदक्षवो यस्य पदं सुमंगलम
दिदक्षवो यस्य पदं सुमंगलम
विमुक्त संगा मुनय सुषादव
विमुक्त संगा मुनय सुषादव विमुक्त संगा मुनय सुषादव विमुक्त संगा मुनय सुषादव
चरन्त्य लोका व्रतम व्रतम अवरणम वने
चरण्य लोका व्रतम व्रतम वने चरण्य लोका व्रतम
व्रतम वने भूतात्म भूता सुरदे समे गति
भूतात्म भूता सुरदे समे गति
भूतात्म भूता सुहृदे समे गति भूतात्म भूता सुहृद समे गति I'll recite the whole verse now. The same way you can try. Okay? ऋदक्षवो यस्य पदं सुमङ्गलां विमुक्तसङ्गामुनय सुषादवा चरन्त्यलोकाव्रतमव्रणं वने भूतात्मभूता सुहृदे समे गति
पदं सुमङ्गलां विमुक्तसङ्गामुनय सुषादवा चरन्त्यलोकाव्रतमव्रणं वने भूतात्मभूता सुहृदे समे गति
ऋदक्षवो यस्य पदां सुमङ्गलां विमुक्तसङ्गामुनय सुषादवा चरन्त्यलोकाव्रतमव्रणं वने भूतात्मभूता सुहृदे समे गति
ऋदक्षवो यस्य पदां सुमङ्गलां विमुक्तसङ्गामुनय सुषादवा चरन्त्यलोकाव्रतमव्रणं वने भूतात्मभूता सुहृदे समे गति।